विजया दशम्या सुखदोपलक्ष्ये रेडियो नेपाल सकल श्रोतृषु सुख सुस्वास्थ्य समृद्धिनाम कृते हार्दिम मंगलमयीम शुभकामनाम अभिव्यनक्ति। एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। वडा दशैं इति नाम्ना प्रसिद्धं विजयादशमी पर्व अद्य आराष्टं हर्षोल्लास पुरस्सरं समायोज्यमानम् अस्ति। उपलक्ष्यस्मिन् अद्य नेपालिनः पित्र मान्यजनानां पुरो गुरुपुरोहितानाञ्च करकमलेभ्यः दुर्गा भवान्यः अभिषेक ग्रहण पुरस्सरं दध्यक्षतान् यवाङ्कुरांश्च परिदधति। पर्वेदं नेपालीनां कृते सर्वाधिक महत्वाधायकं वर्तते। नवरात्रावधि विधिपूर्वकं पूजितायाः विजयायाः प्रासाद ग्रहणेन सर्वत्र विजयो लभ्यते इति धार्मिक विश्वास अस्माकं समाजे सुचिरं प्रतिष्ठितो वर्तते। विजयायाः प्रसादं परिधाय युद्धरतेन रामचन्द्रेण रावणोपरि युधिष्ठिरेण कौरवोपरि राज्ञा सुरथेन कोला विध्वंसिनाम् उपरि च विजयः अधिगत इति पौराणिकवृत्तं वर्तते। अद्य विजयादशम्या टीकाया शुभमुहूर्त पूर्वान्नस्य द्विकलोत्तर दशवादने स्थिति नेपाल पञ्चाङ्ग निर्णायक समिति ज्ञापयति। समिते अनुसारेण टीकाया शुभमुहूर्त पूर्वान्नस्य द्विकलोत्तर दशवादने सन्नपि आदिवसं टीकाधरणाय शुभमस्ति। क्रमोऽयं कोजाग्रत पूर्णिमां यावत् चलति च। विजयादशम्या दिने अद्य देवी विसर्जनस्य शुभमुहूर्त पूर्वान्नस्य ऊनविंशति कलोत्तर अष्टवादने स्थिति च पञ्चाङ्ग निर्णायक समिति ज्ञापयति। समितेः अध्यक्ष प्राध्यापक श्रीकृष्ण अधिकारी कथयति अत्यावश्यकतायाः अवस्थायां देवी विसर्जनस्य पश्चात् टीका धर्तुं शक्यते। निर्धारित मुहूर्तस्य प्रतीक्षा नावश्यकी। देवी विसर्जनावधिं यावदपि प्रतीक्षाया अवस्था नास्ति चेत् सूर्योदयमनु देवीं विसर्ज्य टीका धर्तुं शक्यते। उपलक्ष्यस्मिन् शुभकामना सन्देशं ददति राष्ट्रपतिः विद्यादेवी भण्डारी। प्रतिकूल प्रवृत्तेर् विरुद्धे अनुकूल प्रवृत्त्या विजयप्राप्तेः हर्षं व्यङ्क्तुं समायोज्यमानस्य विजयादशमी पर्वणः विशेष महत्वम् अस्तीति निगदति। राष्ट्रपतिना भण्डारिणा सन्देशे एतादृशैः पर्वोत्सवैः नेपाली समाजस्य मौलिक परिचयस्य रूपेण विद्यमानानां जातीय भाषिक भौगोलिक सामाजिक सांस्कृतिक विविधतानां मध्ये परस्परं सद्भाव सहिष्णुता बन्धुत्वानां भावनाम् अभिवर्ध्य राष्ट्रियैकतां सुदृढीकर्तुम् अतिरिक्तं साहाय्यं मिलतीति विश्वासः व्यक्तो वर्तते। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते शुभकामना सन्देशे अस्माकं देशः विविधाभिः भाषा धर्म संस्कार संस्कृतिभिः अत्यन्तं भरिपूर्णोऽस्तीति उल्लिख्य संविधानेन सर्वेभ्यो धार्मिक सांस्कृतिक भाषिक समुदायेभ्यः स्वधर्म संस्कृत्योः संरक्षण संवर्धनयोः अधिकारस्य प्रत्याभूतिर्विहितास्तीति उक्तं वर्तते। प्रधानमन्त्री शेरबहादेउवा स्वस्य सन्देशे विजयादशमी प्रवृत्तिभि सांस्कृतिक पर्वभि नेपाली समाजे मानव जीवने च भातृत्वाय भावनात्मिकायै एकतायै राष्ट्रिय गौरवाय च विशिष्ट योगदानं प्रदीयमानम् अस्तीति कथयति। प्रधानमन्त्रिणा देवाभिधेन कोविड ऊनविंशतेः नियन्त्रणस्य उपायेषु प्रभावकारिरूपेण अविलम्बितेषु सत्स्वपि एतस्याः संकटस्य विद्यमानतायाः कारणेन स्वास्थ्य मापदण्डान् परिपाल्य विजयादशमी पर्व समायोजयितुं सर्वे नेपालिनः अनुरुद्धाः सन्ति। नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन स्वस्य शुभकामना सन्देशे बहुजातीय बहुभाषिक बहुसांस्कृतिक बहुधार्मिक विविधताभिः भरिपूर्णे सुन्दरे राष्ट्रे नेपाले विभिन्नानां पर्वणां स्वस्व पृष्ठभूमि मौलिकता मूल्यानि च सन्ति। एतेषामेव मौलिक परिचय सहितानां सांस्कृतिक न्यासानां कारणेन नेपालः आदिकालादेव स्वतन्त्रम् अविभाज्यम् एकताबद्धं च राष्ट्रं भवितुं सफलं समृद्धम् अस्तीति उल्लिखितं वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षेण माधव कुमार नेपालेन प्रदत्ते शुभकामना सन्देशे विभिन्नानां जातीनां समुदायानाञ्च एकताद्वारा राष्ट्रस्य विकासस्य जनतायाः समृद्धेश्च अभीप्सा प्रपूर्यते इति विश्वासः व्यक्तो वर्तते। सन्देशे अध्यक्षेण नेपालेन उक्तमस्ति अस्माकं राष्ट्रे प्रचलिताभिः विविधता मौलिक संस्कृति परम्पराभिः विश्वमानचित्रे नेपालस्य गौरवं वर्धापितमस्ति। मन्त्रिपरिषद पूर्वाध्यक्षेण खिलराज रेग्मिणा उपलक्ष्यस्मिन् प्रदत्ते शुभकामना सन्देशे एकतायाः पारस्परिक सद्भावस्य प्रेमभावस्य च प्रदर्शकात् विजयादशमी पर्वणः राष्ट्रनिर्माणे एकी भवितुं सर्वेभ्यः प्रेरणा मिलतीति विश्वास व्यक्तो वर्तते। विजयादशम्याः अवसरे सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्रिणा त्रिलोचन भट्टेन च प्रदेशवासी जनतायै शुभकामना व्यक्तास्ति। राष्ट्रपति विद्यादेवी भण्डारी साफपादकन्दुक प्रतियोगितायाः अन्तिमस्पर्धां प्राप्य राष्ट्रिय गौरवम् अधिगन्तुम् साफल्यम् प्राप्तमिति कृत्वा नेपाली पादकन्दुक समूहाय वर्धापनम् ज्ञापयति। असौ साफपादकन्दुक प्रतियोगितायाः इतिहासे प्रथमवारम् अन्तिमस्पर्धां प्राप्य राष्ट्रिय गौरवम् अधिगन्तुम् सफलता प्राप्तेति कृत्वा नेपाली पादकन्दुक समूहस्य सम्पूर्णेभ्यः क्रीडकेभ्यः प्रशिक्षकेभ्यः पदाधिकारीभ्यश्च ट्वीटर सामाजिक सञ्जालस्य माध्यमेन ह्यो वर्धापनम् ज्ञापितवती। राष्ट्रपतिना भण्डारिणा क्रीडायाः अन्तिमप्रतिस्पर्धायां च सफलता प्राप्तये अग्रिम शुभकामना व्यक्ता वर्तते। बुधवासरे सम्पन्नायां क्रीडायां बंगलादेशं समान स्थाने निरुद्ध्य नेपालः प्रथमवारं साफ क्रीडोत्कृष्टतायाः अन्तिम प्रतिस्पर्धां प्राप्तो वर्तते। अतपरं नेपाल भारतयोर्मध्ये अन्तिम क्रीडायां प्रतिस्पर्धा भविष्यति। प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन च साफ क्रीडोत्कृष्टतायाः अन्तिम प्रतिस्पर्धायां प्राप्ताय नेपाली पादकन्दुक समूहाय वर्धापनम् ज्ञापितम् वर्तते। पूर्व प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली सर्वकारम् आलोचयन् कथयति मासत्रयावधौ विलम्बेन सम्प्रति मन्त्रीमण्डलेन पूर्णता प्राप्तास्ति। विजयादशमी दीपावली छठ नेपाल संवत्सराणाम् अवसरे ह्य झापा जनपदस्य वीरतामोडस्थाने आयोजिते शुभकामनायाः आदान प्रदान कार्यक्रमे अध्यक्षः ओली अवोचत् मासत्रयावधौ विलम्बेन मन्त्रीमण्डलेन पूर्णता प्राप्तास्ति। एतेन सर्वकारः कथं प्रचलन् स्थिति स्पष्टीभूतं वर्तते। अन्यत् किं किं जातं दर्शनाय अवशिष्टं चास्ति। गण्डकी प्रदेशस्य प्रमुख पृथ्वीमान गुरुङ कथयति धर्म संस्कृत्यो रक्षणं सर्वेषां दायित्वं वर्तते इति समाचारः।